अथ पञ्चमोऽध्याय अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च संससि यत् श्रेय एतयोरेकौ तन्मे ब्रूहि सुनिश्चितम् श्रीभगवान् उवाच सन्न्यासः कर्मयोगश्च निःश्रेयसकरावभौ तयोस्तु कर्म सन्न्यासात् कर्मयोगो विशिष्यते ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्रमोच्यते साङ्ख्ययोगौ पृथक् बाला प्रबलान्ते न पण्डिता एकमाप्यास्थितः सम्य उभयोर्विन्दते फलम् यः साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति सन्न्यासस्तु महाबाहो दुःखमात्मयोगतः योगयुक्तो मुनि ब्रह्मा न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विदितात्मा जितेन्द्रिय सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति योक्तो मन्येत तत्त्ववे पश्ये शृण्वन् स्पृशेजिघ्नम् नाश्नन् गच्छन् स्वपैश्वसन् कल्पान्विश्रीगन्धन् नुन्विषन्निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तान्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति लिप्यते न स पापेन पद्मपत्यमिवम्बसा कायेन मनसा बोध्या केवलैरेन्द्रियैरपि योगिनः कर्म कुर्वन्ति साङ्गं त्यक्त्वात्मशुद्धये योक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी अयोक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनुषा सन्न्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्त्रे त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नाद्यते कस्य चेत् पापं न चैव सुकृतं विभो अज्ञानेन आवृतं ज्ञानं तेन मोह्यन्ति जन्तव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषामादित्यवज्ञानम् प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा गच्छन्त्यपुनरावृत्ति ज्ञाननिर्भूतकर्मसा विद्या विनयसम्पन्ने ब्राह्मणे गविहस्तिनि सुनिचैव स्ववाके च पण्डिता समदर्शिना इहैव तैर्जितः सर्गो ईशं साम्ये स्थितं मन निर्दोषं हि समं ब्रह्मा तस्माद् ब्रह्मणि ते स्थिता न प्रशिष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबुद्धिरसमूढो ब्रह्मविद्ब्रह्मणि स्थितः बाह्यस्पर्शे स्वसक्तात्मा बिन्दत्यात्मनि यत्सुखम् स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ये हि संस्पर्शजा भोगा दुःखयोनय एव ते आद्यन्तवन्तकौन्तेय न ते सुरमते बुध शक्नोति हैव यः सोढुम् प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स योक्तः स सुखी नर योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लभन्ते ब्रह्मनिर्वाण मृषयः क्षीणकर्मसा छिन्नाद्वैधायतात्मान सर्वभूतहितेरता कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मना स्पर्शान्ते त्वा बहिर्बाह्याश्चक्षुस्थैवान्तरे भ्रुवो प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ यतेन्द्रियमनो बुद्धि मुनिर्मोक्षपरायणा विगते चाभय क्रोधो यसदा मोक्त एव स भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ज्ञात्वा मां शान्तिमेच्छति। ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमः।